अस्तु, सर्वेभ्यो नमस्कारः। अस्तु, वर्गस्य आरम्भं कुर्मः। अस्तु, रमाजयन्ती भगिनी, भवती एतत् लता इति शब्दस्य विभक्ति वदति वा?
आं महोदय, एकं निमिषम्। सारि,
चिन्ता मास्तु भगिनि।
विभक्ति लता, लता रमा, लता विभक्ति महोदय।
लता इति तदेव आसीत् खलु भगिनि, देवशब्दः लता शब्दः मुनिशब्दः।
अस्तु महोदय, लता लते लताः, लतां लते लताः, लतया लतायां, लताभिः लतायै, लताभ्यां लताभ्यः, लतायाः लताभ्यां लताभ्यः, लतायाः लतयोः लतानां, लतायां तयोः लतासु,
सम्बोधनं। अस्तु, समीचीनं भगिनि, समीचीनं भगिनि, धन्यवादः। अस्तु, रघुपति महोदय, उमेशः इति कृतं, शिवः इति करोति वा?
शिवः, शिवौ, शिवाः, शिवं शिवौ, शिवं शिवं शिवौ, शिवा शिवान्
शिवान्
शिवेन शिवाभ्यां शिवैः शिवाय शिवाभ्यां शिवेभ्यः पञ्चमी पञ्चमीभक्ति शिवात् शिवाभ्यां शिवेभ्यः षष्ठी शिवस्य शिवयोः शिवानां शिवे शिवे शिवयोः शिवेषु
शिवेषु
हा
हा तत्र शिवेषु समीचीनं महोदय। अस्तु, हरिमहोदय वदति वा?
आं महोदय।
अस्तु, गतसप्ताहे क्लिष्टं अहं दत्तवान् इदानीं भवते, किन्तु अद्य अस्तु, वसुदेवः इति
वसुदेवः वसुदेवं वसुदेह वसुदेवः वसुदेवौ वसुदेवाः वसुदेवं देवौ वसुदेवान् वसुदेवेन वसुदेवाभ्यां वसुदेवैः वसुदेवाय देवाभ्यां वसुदेवेभ्यः वसुदेवात् वसुदेवाभ्यां वसुदेवेभ्यः वसुदेवस्य वसुदेवयोः वसुदेवानां
वसुदेवान् तत्र वसुदेवानां नकारः एव।
आम् महोदय, आम् महोदय,
वसुदेवानां। इदानीं सप्तमी
वसुदेवे वसुदेवयोः वसुदेवेषु।
समीचीनं महोदय, धन्यवादः। अस्तु, कः न उक्तवान्? अत्र भानुचैतन्य महोदय वदति वा?
आम् महोदय।
अस्तु, चैतन्यः इति वदतु।
चैतन्यः, किन्तु चैतन्यः तु एक एव, द्वौ बहुवचन
केवलं व्याकरणरूपः।
चैतन्यः, चैतन्यौ, चैतन्याः, हे चैतन्य, हे चैतन्यौ, हे चैतन्याः, चैतन्यं, चैतन्यौ, चैतन्यान्, चैतन्येन, चैतन्ये, चैतन्येभ्यः,
चैतन्येन, तत्र नकारः एव, सर्व केवलं तथा ददा नकारः एव, चैतन्येन,
चैतन्य न महोदय नोणः सूत्रं तु
नकारः नास्ति. अस्तु अस्तु.
आम् आम्. चैतन्येन चैतन्याभ्यां चैतन्येभ्यः चैतन्याय चैतन्याभ्यां चैतन्याभ्यः चैतन्यात् चैतन्याभ्यां चैतन्याभ्यः चैतन्यस्य चैतन्योः चैतन्यानां
चैतन्यानां नकारः एव तत्र.
आं चैतन्यानां चैतन्ये चैतन्योः चैतन्येषु.
आमामामामामामाम् तदेव अहं मम प्रश्नः अपि आसीत्. अस्तु भानुचैतन्य महोदय, तत्र तृतीया पुनरेकवदतु. तत्र चैतन्येन
रामेण रामाभ्यां रामेभ्यः
रामैः इति
रामैः क्षम्यताम्. चैतन्येन चैतन्याभ्यां
चैतन्यैः इति अस्ति
चैतन्यैः.
तत्र तृतीया विभक्ति बहुवचनम् ऐः इति भवति अकारान्त पुल्लिङ्गे. तावदेव. अस्तु अस्तु. तत्र लता इति कृतवन्तः केवलं लता. किं महोदय
चतुर्थी अपि चैतन्येभ्यः नाट् चैतन्याभ्यः
चैतन्येभ्यः. भानुचैतन्य महोदय पुनरेकवारं तत्र
चतुर्थी.
अस्तु अस्तु महोदय. अस्तु तत्र अस्तु. इदानीं स्त्रीलिङ्गे कुर्मः. अस्तु लता इति लता इति एव कुर्मः. रमाजयन्ती भगिनी उक्तवती. अस्तु सरला भगिनी, लता इति वदति वा?
सीता वा?
लता
लता लते लताः लतां लते लताः लतया लताभ्यां लताभिः लतायै लताभ्यां लताभ्य लतायाः लताभ्यां लताभ्य लतायाः लतयोः लतानां लतायां लतयोः लतासु.
समीचीनं.
हे लते हे लते हे
हे ल. अस्तु समीचीनं भगिनि. अस्तु नरेश महोदय, उमा इति वदति वा?
उमा उमे उमाः उमाम् उमे उमाः उमया उमाभ्याम् उमाभिः उमायै उमाभ्याम् उमाभ्यः उमायाः उमाभ्याम् उमाभ्यः उमायाः उमयोः उमानाम् उमायाम् उमयोः उमासु.
समीचीनं महोदय. अस्तु हरि महोदय, सीमा इति.
सीमा सीमे सीमाः सीमां सीमे सीमाः सीमया सीमाभ्यां सीमाभिः सीमायै सीमाभ्यां सीमाभ्यः सीमायाः सीमाभ्यां सीमाभ्यः सीमायाः सीमयोः सीमानां सीमायां सीमयोः सीमासु.
सीमासु समीचीनं महोदय. तत्र नकारः एव सर्वत्र.
आम् आम्
सत्यं खलु. नकारः एव, नकारः नास्ति. अस्तु अस्तु रघुपति महोदय, आकारान्त स्त्रीलिङ्गपदं भवान् किं वदति? भवान् एव चिनोतु.
सीता.
सीता. अस्तु.
सीता सीते सीताः सीतां सीते सीताः सीतया सीतया सीता सीताभ्यां सीताभिः चतुर्थी विभक्ति सॉरी सीतायै सीताभ्यां सीता सीताभ्यः पञ्चमी विभक्ति एकनिमिषं पञ्चमीभक्ति
सीतायाः
सारि सीतायाः सीताभ्यां सीताभ्यः षष्ठी सीतायाः सीतयोः सीतानां सप्तमी विभक्ति सीतायां सीतायोः सीतासु
सीतयोः
सीतासु
अत्र किं किम् अस्ति सीतासु अत्र किं किं द्विवारम् आगच्छति अथवा बहुवारं किं किम् आगच्छति अत्र विभक्ति
पञ्चमी षष्टि आकारान्त आकारान्त स्त्रीलिङ्गे पञ्चमी षष्ठी एकवचन एकवचन समानमेव समानरूपम् अपि च तृतीया चतुर्थी पञ्चमी विभक्त्यानां द्विवचनं समानरूपम्
समीचीनम्
अपि च बहुवचने चतुर्थी पञ्चमी अपि समानरूपम् अपि च सोरि बहुवचने समानरूपं द्विवचने पञ्चमी पञ्चमी न षष्टि सप्तमी समानरूपम् अस्ति बहुवचने प्रथमाविभक्ति प्रथमाविभक्ति द्वितीयविभक्ति समानरूपं द्विवचन अपि समानरूपम् अस्ति
अतः आकारान्तस्त्रीलिङ्गशब्दः सुलभम् अस्ति वा कण्ठस्थीकरणार्थम् अथवा अकारान्त पुल्लिङ्गशब्दः सुलभम् अस्ति वा कण्ठस्थीकरणार्थं
कण्ठस्थीकरणार्थं न जाने न जाने
सत्यं सर्वे रामं जानन्ति इदानीं सर्वे सीतामपि जानन्तु इति अस्तु अस्तु भानुचैतन्य महोदय आकारान्तस्त्रीलिङ्गशब्दः भवान् एव एकं चिनोतु
आं महोदय माया इति शब्दः
अस्तु माया माया अस्तु
माया माये मायाः मायां माये मायाः मायया मायाभ्यां मायाभिः मायायै मायाभ्यां मायाभ्यः मायायाः मायाभ्यां मायाभ्यां पञ्चमी मायायाः मायाभ्यां मायाभ्यः षष्टि मायायाः माययोः मायानां मायानां
मायानां
मायायां माययोः मायासु
हा समीचीनं महोदय समीचीनम् अस्तु रमाजयन्ती भगिनी भवती पुल्लिङ्गशब्दः न कृतवती खलु किं करोति भवती महाराजः इति करोति वा
आं महोदय सोरि
महाराजः इति करोतु
अस्तु महोदय महाराजः महाराजौ महाराजाः महाराजं
महाराजं महाराजं
महाराजौ महाराजान् महारेण राजाभ्यां राजैः राजाय राजाभ्यां राजेभ्यः
तत्र महा महा इति महा इति भवति भवेत् भगिनि महा इति त्यजति चेत् तत्र क्लिष्टः भवति अतः एव
तत्र
महाराजशब्दः तत्र महाराजशब्दः अकारान्तशब्दः अस्ति किन्तु राजशब्दः नकारान्तशब्दः अस्ति
अस्तु महोदय
राजन् इति अस्ति अतः अहं महाराजः इति उक्तवान्
अवगतमस्ति महोदय महाराजः महाराजौ महाराजाः महाराजं महाराजौ महाराजान् महाराजेन महाराजाभ्यां महाराजैः महाराजाय महाराजाभ्यां महाराजेभ्यः महाराजात् महाराजाभ्यां महाराजेभ्यः महाराजस्य
महाराजस्य
महाराजे महाराजयोः महाराजेषु सम्बोधना महाराज महाराजौ महाराजाः.
हा समीचीनं भगिनि, समीचीनं, धन्यवादः. अस्तु हा अत्र इदानीम् अस्तु हरिमहोदय कृतवान्. गीताञ्जलि भगिनी नमस्कारः.
नमस्कारः महोदय, क्षम्यताम्, अहं
चिन्ता मास्तु भगिनि, तत् समीचीनमेव अस्ति. अद्य वर्गे आरम्भे किञ्चित् क्लेशः आसीत्, अतः विलम्बेन आगतवती. सम्यक् एव अस्ति भगिनि. अस्तु हा अस्तु भगिनि, भवती अत्र महादेवः इति शब्दस्य विभक्ति वदति वा?
अस्तु महोदय, महादेवः महादेवौ महादेवाः महादेवं महादेवौ महादेवान् महादेवेन महादेवाभ्यां महादेवैः
महादेवैः महादेवैः
महादेवैः
रामैः महादेवैः
चतुर्थी महादेवाय महादेवाभ्यां महादेवेभ्यः पञ्चमी महादेवात् महादेवाभ्यां महादेवेभ्यः षष्ठी महादेवस्य महादेवयोः महादेवानां सप्तमी महादेवे महादेवयोः महादेवषु महादेवेषु
महादेवेषु
महादेवेषु सम्बोधनं महादेव महादेवौ महादेवाः.
हा समीचीनं भगिनि. हा अस्तु हा अत्र अस्तु, सर्वे कृतवन्तः सर्वम् इति मन्ये. नरेश महोदय कृतवन्तः, हरिमहोदय कृतवन्तः, रघुपति आचार्य भवानपि कृतवान्. अस्तु अस्तु हा तत्र एकः विषयः किञ्चित् इदानीं वदामः. तत्र रामशब्दे विभक्तिरूपं यदि पश्यामः तत्र किं भवति, तत्र णकारः भवति. किन्तु देवशब्दः विभक्तिरूपं पश्यामश्चेत् तत्र नकारः एव अस्ति. कुत्र कुत्र नकारः णकारः भवति, कोऽपि वदति वा? अकारान्त पुल्लिङ्गशब्दः रामशब्दः अपि अकारान्त देवशब्दः, कुत्र कुत्र नकारः भवति णकारः भवति? अहं कारणं न पृच्छामि, केवलं कुत्र नकारः णकारः भवति.
तृतीया
एकवचने षष्टि बहुवचने समीचीनं. हा समीचीनं, तत्र एव नकारः अस्ति देवशब्दविभक्तिरूपे अपि रूपेषु, अपि रामशब्दविभक्तिरूपेषु अपि तत्र एव द्विवारं नकारः आगच्छति. देवशब्दे किं भवति, देवेन इति अस्ति. रामशब्दे किम् अस्ति,
रामेण
रामेण इति अस्ति. हा तदनन्तरं षष्टिविभक्ति बहुवचनं किम् अस्ति देवशब्दस्य,
देवस्य देवयोः देवानां
देवानाम् इति अस्ति बहुवचने. रामस्य रामशब्दस्य किं भवति बहुवचने षष्ठी, रामाणाम् इति अस्ति. तत्र किमर्थं, हा तत्र किमर्थं नकारः आगच्छति इति प्रश्नः अत्र.
यदि अपूर्वे यदि र अस्ति तदनन्तरं णकार भवति.
हा प्रथमस्तर, हा तत्र सोपानम् अस्ति. हा सोपानम् इति इत्युक्ते किं, कोऽपि वदति वा सोपानम् इति?
स्टेप्
स्टेप् हा स्टेप् इति प्रथमसोपानं समीचीनं प्रथमसोपानम् अस्ति कुत्र वयं रकारः रेपः इति उच्यते तत् रुकारः भवति रुकारः इति स्वरः अस्ति खलु अ इ ऋ इति अस्ति यदि तद् यदि तदस्ति अथवा यदि यारा लव इति व्यञ्जनः अस्ति यार द्वितीयव्यञ्जः व्यञ्जनः यदि तद्व्यञ्जनं यदि तद् अस्ति अथवा अन्यत् अपि अस्ति चेत् णकारः भवति रघुपतिमहोदय अन्यत् किं भवति चेत् णकारः भवति ऋषि इति शब्दः तत्र शकारः अस्ति तत्र अथवा कृष्णः इति शब्दे कृष्णः इति कृष्णः तत्र नकारः अस्ति तत्र शकारः मूर्धन्यशकारः अस्ति तत्र यदि तत् पूर्वम् अस्ति चेत् पदे किन्तु समस्तपदं नास्ति न भवेत् यदि वयम् एतत् राम प्लस् देवः रामदेवः इति अस्ति चेत् तत्र रामदेवेन इति एव भवति रामेण अस्ति किन्तु रामदेवेन एव भवति तद् यदि समस्तपदं नास्ति किन्तु समस्तपदमिति सर्वे अवगच्छन्ति खलु समस्तपदम् इत्युक्ते कम्पौण्ड् वर्ड् इति समस्तपदं तत्र समासः भवति न वा इति विषयः नास्ति केवलं पदद्वयं स्वीकृत्य नूतनपदं कुर्मः चेत् तत् समस्तपदं तत्र राम प्लस् देवः तत्र किमपि समासः सन्धि किमपि नास्ति खलु रामदेवः रामदेवः तत्र समस्तपदमस्ति तत्र तस्य षष्टिविभक्ति बहुवचनरूपम् अस्ति रामदेवानामेव किन्तु यदि तत्र रामशब्दः अस्ति तत्र रकारः अस्ति तदनन्तरं विभक्ति कुर्मः चेत् तत्र णकारः भवति इति प्रथमसोपानं प्रथमसोपानं किं द्रष्टव्यं णकारः कुत्र भवति समस्तपदं नास्ति किन्तु असमस्तपदम् इति वक्तुं शक्नुमः तत्र यदि पदे रकारः वा यारालाभ रकारः अथवा ऋकारः रेपः इति नाम अस्ति तस्य तत्र अथवा षकारः अस्ति चेत् तत्र यदि विभक्ति कुर्मः तस्मिन् समये णकारः भवितुम् अर्हति किन्तु तत्रापि प्रथमसोपानमेव पर्याप्तं नास्ति तत्र द्वितीयसोपानम् अस्ति तृतीयसोपानमपि अस्ति अतः बहु गम्भीरविषयः अस्ति एषः तत्र प्रथमसोपानं दृष्टवन्तः प्रथमसोपानं किं यदि रकारः ऋकारः अथवा षकारः अस्ति चेत् नकारः भवति यदि ऋकारः नास्ति रकारः नास्ति षकारः नास्ति पदे चिन्ता नास्ति एव नकारस्य चिन्ता नास्ति नकारः एव सर्वत्र भवति देवशब्दः वा उमाशब्दः वा लताशब्दः वा तत्र षकारः नास्ति ऋकारः नास्ति रकारः नास्ति किन्तु एतत् स्वीकुर्मः हर्षः इति हर्षः इति पदं स्वीकुर्मः तत्र यदि हर्षः तत् अकारान्तपुल्लिङ्गशब्दः अस्ति खलु अस्तु तस्य तृतीया विभक्ति किं भवति किमर्थं
अत्र नकार रकार मध्ये बाधा अस्ति
तत्र किं भवति चेत् यदि तत्र एतद् द्वितीयसोपानम् अस्ति तत्र ऋकारः रकारः अपि षकारः अस्ति चेत् णकारः भवति किन्तु भवितुमर्हति, किन्तु मध्ये बाधा न भवेत्। बाधा इत्युक्ते रकार अपि षकारस्य तस्य अपि नकारः तयोः मध्ये किं किम् अस्ति इति द्रष्टव्यम्। यदि किमपि पदं स्वीकुर्मः, यदि हर्षः इति अस्ति इति स्वीकुर्मः, तत्र किं भवति? अथवा कृष्णः इति, प्रथमं कृष्णः इति पश्यामः, कृष्णशब्दे किं किम् अस्ति? नरेश महोदय, कृष्णशब्दे किं किम् अस्ति? तदनन्तरं न नकारः अस्ति, कृष्णः नकारः, नकारः अस्ति, कृष्णः, कृष्ण अस्तु। तत्र शकारः अस्ति खलु?
शकारः अस्ति।
अस्तु, इदानीं तस्य कृष्णशब्दस्य तृतीया विभक्ति किं भवति?
कृष्णेन,
कृष्णे नकारः, नकारः अस्ति वा अत्र? कृष्णे इति तत्र तु नकारः अस्ति, किन्तु तदनन्तरं कृष्णे न वा अथवा कृष्णे न वा? किं समीचीनं? न एव समीचीनं, न एव समीचीनं। किमर्थम्? एतदेव द्वितीयसोपानम् अस्ति। प्रथमसोपानम् एतत् णत्वम् इति विषयः अस्ति। तत्र प्रथमसोपानं किम् अस्ति चेत्, प्रथमसोपानं किम् अस्ति चेत्, यदि ऋकारः रकारः षकारः नास्ति तत्र किमपि चिन्ता नास्ति, नकारः एव अस्ति विभक्तिरूपे। यदि ऋकारः रकारः षकारः अस्ति चेत् इदानीं द्वितीयसोपानं द्रष्टव्यम्। द्वितीयसोपानं किं? ऋकारः रकारः षकारः अस्ति इति इदानीम् अस्मिन् सन्दर्भे स्मः, ऋकारः अथवा रकारः अथवा षकारः पदे अस्ति। इदानीं वयं चिन्तयामः तत्र णकारः भवति वा न वा इति। तस्मिन् समये किं कुर्मः? मध्ये किं किम् अस्ति इति पश्यामः, स्वरः वा व्यञ्जनं वा। तत्र द्वितीयसोपानम् एतदस्ति, यदि मध्ये खवर्ग अथवा पवर्ग व्यञ्जनानि सन्ति चेत् बाधा नास्ति, तस्मिन् समये नकारः णकारः एव भवति। यदि छवर्ग टवर्ग अथवा
थवर्ग,
अहं सम्यक्तया उक्तवान् वा? पप बम हा चिन्तयामि, कोऽपि हा अहं चिन्तयामि, एतदेव अस्ति। छवर्ग टवर्ग अपि थवर्ग, हा एतत् मध्ये अस्ति चेत् तत्र बाधा भवति, नकारः नकारः एव भवति, तत् तस्य परिवर्तनं न भवति।
प्रथमापि पञ्चम अस्ति चेत् बाधा नास्ति,
बाधा नास्ति, समीचीनं महोदय। हा प्रथमवर्गः कवर्गः अथवा पञ्चमवर्गः पवर्गः अस्ति चेत् बाधा नास्ति। अपि अन्ये व्यञ्जनानि अपि सन्ति खलु, यारालाभ शश सह ल इति, तत्र यारालाभ अस्ति चेत् तत्र किं बाधा अस्ति न वा?
नास्ति,
बाधा नास्ति, किन्तु शश सह अस्ति चेत् तत्र बाधा पुनः अस्ति। इदानीं कृष्णशब्दे किं भवति? षकारः अस्ति, किन्तु षकारस्य अनन्तरं णकारः अस्ति। णकारः कस्मिन् वर्गे अस्ति? टवर्गे अस्ति। टवर्गे कवर्गः नास्ति अपि पवर्गः नास्ति इति कृत्वा तत्र कृष्णशब्दे विभक्ति यदि कुर्मः तत्र नकारः एव आगच्छति, नकारः न आगच्छति, अतः कृष्णेन इति भवति, कृष्णानाम् इति भवति। इदानीं हर्षः इति शब्दः स्वीकुर्मः, तत्र किं भवति? तत्र हर्षः, अत्र रेपः अस्ति खलु, प्रथमः हकारः अस्ति, तदनन्तरं हर् अर् अस्ति, अतः रेपः अस्ति तत्र, तदनन्तरं शकारः अस्ति. इदानीं तृतीयविभक्तौ किं भवति? नकारः भवति न भवति? किमर्थम्? हा, तत्र अर् इति अस्ति, रेपः अस्ति, तदनन्तरं शकारः अस्ति. शकारः अस्ति चेत् बाधा अस्ति, किन्तु शकारः एव अस्ति तत्. इदानीं किं वक्तुम् इच्छामः, तत्र णकारः हर्षेण इति भवति, किन्तु कारणं किं? तत्र इर् इति न कारणं, तद् कारणं नास्ति, किन्तु शकारः, तस्य अनन्तरं यत् शकारः अस्ति तदेव कारणम् अस्ति. अतः किं भवति? हर्षे न इति भवति. इदानीं षष्टिविभक्ति बहुवचनं किं भवति?
हर्षाणां.
हा, तत्रापि नकारः भवति इति द्वितीयसोपानम्. अत्र सोपानानि अनेकानि सन्ति, बहु गम्भीरविषयः अस्ति. तत्र समस्तपदं नास्ति चेत् किं किं करणीयम्, एतत् प्रथम अप द्वितीयसोपानम् एव अत्र समीचीनम् अस्ति. अन्यानि सोपानानि यानि सन्ति तस्य विषयः व्याकरणवर्गे वा बहु दीर्घचर्चा भवति तत् तस्य. कुत्र णत्वं भवति इति अनेकाः दीर्घं पुस्तकमपि लिखितवन्तः. अस्तु, अतः एतत् केवलं प्रथम अपि द्वितीयसोपानं, तद् पर्याप्तम् अस्माकं कृते. अस्तु, अतः यदि वयं विभक्तिरूपं पश्यामः, एतत् मनसि स्थापयतु, रकारः रेपः अथवा शकारः अस्ति चेत्, क्षम्यतां, रकारः नास्ति, ऋकारः नास्ति, शकारः नास्ति चेत् कोऽपि बाधा, कोऽपि चिन्ता नास्ति, नकारः कर्तुं शक्नुमः. नकारः एव सर्वत्र भवति. यदि ऋकारः ऋकारः रकारः अथवा शकारः, रेपः अपि शकारः इति वदामः, यदि द्वयम् अस्ति, द्वयम् अथवा एकम् अस्ति, तस्मिन् समये द्वितीयसोपानं करणीयमस्ति. मध्ये किं किम् अस्ति इति दृष्ट्वा, यदि कवर्ग अथवा पवर्ग अस्ति अथवा यारालाभ इति अस्ति मध्ये, तस्मिन् समये वयं नकारः करणीयं भवति अस्माभिः, करणीयं भवति तत्र. अस्तु,
अस्तु. महोदय, अहं चिन्तयामि, अवगतं, परन्तु समीक्षणम् एकवारं पुनः वाक्य परिभाषां वदतु.
हा, प्रथमसोपानम् एतदस्ति. प्रथमसोपानमस्ति ऋकारः रकारः अथवा शकारः, कृष्णशकारः अथवा षष्ठी मध्ये यत् शकारः भवति, यदि एतानि न सन्ति, ऋकारः नास्ति, रकारः नास्ति, शकारः नास्ति चेत् कोऽपि चिन्ता नास्ति, नकारः एव. देवशब्दः अथवा सीताशब्दः अथवा मुनिशब्दः, तत्र ऋकारः नास्ति, रकारः नास्ति, शकारः नास्ति. किन्तु रामशब्दे रकारः अस्ति, ऋषिशब्दे अथवा कृष्णशब्दे शकारः रकारः एतत् सर्वम् अस्ति. तत्र द्वितीयसोपानस्य आवश्यकता अस्ति. द्वितीयसोपानं किम् अस्ति? यत् ऋकारः रकारः शकारः अस्ति, तस्य अनन्तरं नकारस्य अपि नकारस्य पूर्वम् अपि ऋकाररकारषकारस्य अनन्तरं तयोः मध्ये किं किम् अस्ति इति द्रष्टव्यमस्ति. यदि मध्ये खवर्ग अथवा पवर्ग अस्ति चेत् नकारः भवति. यदि छवर्ग टवर्ग तवर्ग अस्ति चेत् नकारः न भवति. खवर्ग अपि पवर्ग अस्ति चेत् नत्वं भवति इति वदामः. नकारः भवति. ठवर्ग अस्ति चेत् नकारः न भवति, नकारः एव भवति. नकारः एव भवति. एतत् चिन्तयामः, साधारणरूपम् अस्ति नकारः देवेन अपि देवानाम् इति, तत् साधारणरूपम् इति चिन्तयामः. विशेषरूपं रामेण अपि रामाणाम् इति विशेषरूपम् इति चिन्तयतु. प्रथमसोपानं किम् अस्ति? रकारः ऋकारः षकारः नास्ति चेत् साधारणरूपं सामान्यरूपं नकारः. यदि अस्ति, इदानीं पश्यतु मध्ये किम् अस्ति इति. यदि छवर्ग टवर्ग तवर्ग अस्ति चेत् साधारणरूपं, खवर्ग पवर्ग अस्ति चेत् विशेषरूपम्.
तृतीयविभक्ति रामेण, रामेण
नकारः, तत्र किमर्थम् रामशब्दः अस्ति, तदनन्तरं मकारः अस्ति. मकारः कस्मिन् वर्गे अस्ति?
पवर्गे
अस्ति. अतः बाधा नास्ति, अतः नकारः नकारः भवति. रामाणाम् इति भवति.
रामेण रामाणां,
सत्यं, नकारः तत्र भवति. तत्र ऋकारः अस्ति, तदनन्तरं पवर्गीय व्यञ्जनम् अस्ति तत्र.
अस्तु अस्तु, धन्यवादः महोदय.
कोऽपि जानाति वा कोऽपि पदं यत्र ऋकारः पूर्वम् अस्ति तदनन्तरं छवर्ग अथवा टवर्ग अथवा तवर्ग? उदाहरणं मनसि अहं न स्मरामि, कोऽपि जानाति वा? न भगिनि, रकारः अस्ति तदनन्तरं पदे रकारः अस्ति तदनन्तरं छ वर्ग ट वर्ग त्वत वर्ग व्यञ्जनम् अस्ति.
अर्चना
अस्तु, अर्चना, समीचीनं महोदय. अर्चना समीचीनम् अस्तु. इदानीम् अर्चना इति पदे किं भवति? अर् इति रेपः अस्ति, तदनन्तरं चकारः अस्ति, नकारः अस्ति. चवर्ग अस्ति, चवर्गव्यञ्जनम् अस्ति, नकारः तवर्गव्यञ्जनम् अस्ति. इदानीं तत्र किं भवति? बहुवचनं, षष्टिविभक्ति बहुवचनरूपे किं भवति? अर्चनानाम् एव. अत्र साधारणरूपम् अस्ति. रकारः अस्ति किन्तु साधारणरूपमेव अस्ति. किमर्थं चेत् मध्ये बाधा अस्ति, नत्वम् इति न भवति, नकारः एव तिष्ठति इति कृत्वा. अस्तु, समीचीनम् अस्ति. इदानीं विभक्तिरूपं किञ्चित् कृतवन्तः. अस्तु, किञ्चित् विषयस्य परिवर्तनं कुर्मः, अन्य विषयः इति. अस्तु, तत्र गतवर्गे वयं एकां कथां पठितवन्तः. तत्र किं किम् अस्ति इति पुनरेकवारं पश्यामः. अस्तु, तत्र अस्तु, सरला भगिनी, भवती किञ्चित् कथायाः विषये किञ्चित् वदतु. किं प्रथम अपि द्वितीयपरिच्छेदे किं भवति इति किञ्चित् वदति वा? तत् ब्लाक् बोर्ड् मध्ये अस्ति, कृष्णफलके अस्ति, द्वितीयपुटे अस्ति तत्र.
अस्तु, कश्चन व्याघ्रः
व्याधः व्याघ्रः तु अपि अस्ति वने, किन्तु एषः व्याधः अस्ति.
कश्चन व्याधः वने गत्वा, वनं गत्वा जालं प्रसारितवान्. तत्र एका कपोता पतिता, तस्मै तयाः तया कपि सा कपिता ता
तस्याः
सा कपिता सह पिञ्जरे स्थापित अग्रे गतवान्.
तां कपोतां पिञ्जरे स्थापयित्वा
अग्रे गतवान्.
अग्रे गतवान्, गतवान् इति व्याधः भवति खलु, अतः कपोता कर्मपदं भवति.
कपोता पिञ्जरे आसीत्. यदि गच्छन् व्याधः गच्छन् चलितवान्, तत्र मध्ये महती वृष्टि अपि वायुवेगेन चलति आसीत् चलित आसीत् वायु. सः बिभुक्षाग्रस्त अपि शीताग्रस्त अभवत्. तदनन्तरम् एक वृक्षस्य अधो गत्वा आश्रय स्वीकृतवान्. तत्र आश्रयं
स्वीकृतवान्, कर्मपदम् अस्ति.
आश्रयं स्वीकृतवान्, तत्र वृक्षो अधे सः प्रार्थितवान् कोऽपि यदि तत्र वसति मां रक्षा करोतु इति.
मम रक्षणं करोतु इति,
मम रक्षणं
करोतु इति उक्तवान्. समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे रमाजयन्ती भगिनी किञ्चित् वदति वा अत्र, तदनन्तरं किम् अभवत् इति.
आं महोदय, व्याधः बहु वृष्टिः वायुः चेत् एकः वृक्षं समीपे गतवान्.
एकं वृक्षं एकस्य वृक्षस्य समीपे
गतवान्.
गतवान्, समीचीनं.
गतवान् बहु भयकम्पितः तस्य प्रार्थनां कृतवान्. भोः अहं व्याधः अस्मि, कोऽपि अहं सहायं
मम सहायं कोऽपि मम सहायं
कोऽपि मम सहायं कृत्वा
करोति वा, करोति वा कोऽपि मम सहायम् अत्र, कोऽपि अत्र वसति वा मम सहायं कर्तुं शक्नोति, शक्नोति शक्नोति वा.
इति व्याधः प्रार्थनां
करोति, प्रार्थनां करोति, प्रार्थनां करोति. समीचीनं भगिनि, समीचीनं. तदनन्तरं किं भवति तत्र, तस्मिन् वृक्षे कः वसति?
तस्मिन् वृक्षे
सत्यं भगिनि, रमाजयन्ति भगिनि, भवति.
तस्मिन् वृक्षे पञ्जरे बन्धीकृतवती कपोतायाः पतिः
एव अस्ति, सः एव, सः एव वृक्षे वसति,
वृक्षे वसति. पतिः चिन्तितवान् मम पत्नी पञ्जरे बन्दीकृते अस्ति,
बन्दीकृती अस्ति, बन्दीकृती अस्ति,
सः व्याधः
बन्दीकृता, प्रायशः बन्दीकृता इति प्रायशः रूपम् अस्ति इति मन्ये भगिनि.
कृता स्त्रीलिङ्गः अस्ति
अतः
व्याधः मम अतिथिः अस्ति
अतः न अतः न तत्र अतः इत्युक्ते देर्फोर् इति भवति भगिनि
सः
परन्तु इति चिन्तयतु
परन्तु व्याधः मम अतिथिः अस्ति अहं व्याधः सत्कारं व्याधस्य सत्कारं करोमि इति चिन्तयति
इदानीं समीचीनं भगिनि धन्यवादः अस्तु नरेश् महोदय तत्र न न समीचीनं भगिनि एतत् तदेव सम्भाषणसंस्कृतम् अस्ति सम्भाषणं करणीयम् अस्ति खलु चिन्ता मास्तु प्रयासं समीचीना आसीत् प्रयासं समीचीनम् आसीत् चिन्ता मास्तु नरेश् महोदय तत्र कपोतः सः एव एतत् सर्वं चिन्तितवान् वा सत्कारं करणीयम् इति अथवा पत्नी उक्तवती
पत्नी उक्तवती व्याधः अस्माकं गृहे आगतवान् तस्य कारः
सः अतिथिः एव इति चिन्तयतु अहं पञ्जरे अस्मि किन्तु तस्य चिन्तनं मा करोतु अतिथिः इति एव चिन्तयित्वा व्याधस्य सत्कारं करोतु इति सा उक्तवती समीचीनं महोदय अस्तु इदानीं हरि महोदय तदनन्तरं कपोतः किं कृतवान् पत्नी उक्तवती पत्नी किम् उक्तवती अहं पञ्जरे अस्मि किन्तु तस्य चिन्तनं त्यजतु अतिथिः आगतवान् इति व्याधः अतिथिः अस्ति अस्माकं गृहम् आगतवान् इति तदेव मनसि स्थापयतु तस्य सत्कारं करोतु इति सा पतिम् उक्तवती इदानीं कपोतः किं कृतवान्
कपोतः सः पत्न्याः वचनम् अङ्गीकृतवान् परन्तु अङ्गारकं आनीय
ज्वालितवान् तत्र पठति पाठयति किं भेदः कः भेदः तत्र
परस्मैपदी आत्मनेपदी
न तत्र तादृश अर्थः अस्ति सत्यं परस्मै अथवा आत्मनि इति स्वस्मै न करोति अन्यै करोति सत्यम् अहं पठामि इति अथवा सः पठति सः एव कार्यं करोति किन्तु सः पाठयति इत्युक्ते अन्य कोऽपि पठति एषः पाठयति तादृश अर्थे सः एव ज्वलितवान् इत्युक्ते तस्मिन् एव अग्निः अस्ति स्वयं तस्य तद् न सः अग्निं ज्वालितवान् तत्र आकारः दीर्घ आकारः तस्य महत्वम् अस्ति तत्र अस्तु अग्निं ज्वालितवान् तदनन्तरं किं कृतवान् सः
तदनन्तरं सः कपोतः व्याधम् उक्तवान् किम् उक्तवान् इति अहं पत्न्याः एतत्
अग्निः अस्ति तत्र
अग्नि अग्निं साक्रिफैस् करोति.
न न किन्तु किन्तु व्याधं किं वदति सः? अहं अहं मम जीवनं त्यजामि इति सः न वदति खलु. व्याधं दृष्ट्वा सः एतत् न वदति. तत्र किम् अस्ति? भोः व्याध
भोः व्याध एतेन अग्निना भवान् स्वस्य शीत शीतबाधां दूरीकरोतु. कपोतः एतत् अग्निं किं ज्वालितवान्? किमपि व्याधः शीतं दूरं करोतु इति अग्निं ज्वालितवान्.
अस्तु अस्तु, तदेव अन्यरीत्या वदामः. इदानीं कपोतः किं कृतवान्? तत्र अग्निं ज्वालितवान्. इदानीम् अग्निः अस्ति, तत्र अग्निः अस्ति. अग्निः अस्ति चेत् किं भवति? शीतः दूरं गच्छति खलु. हा, शीतः दूरं गच्छति. इदानीं व्याधः कीदृशः व्याधः? सः शीतेन शीतया बाधितः अस्ति व्याधः. हा, इदानीम् अथवा वयं किं वक्तुं शक्नुमः? व्याधस्य शीतबाधा अस्ति इति वक्तुं शक्नुमः. अतः शीतया बाधितवान् अस्ति अथवा तस्य शीतबाधा अस्ति इति वक्तुं शक्नुमः. इदानीम् अग्निः अस्ति, अतः व्याधस्य शीतबाधा किं भवति? दूरं गच्छति.
दूरं गच्छति.
हा, अतः कपोतः किं वदति? व्याधं किं वदति? अग्निना, अग्नि अस्ति तेन अथवा अग्निना, यूसिङ्ग् द फायर्, अग्निना भवान्, हा भवान् स्वस्य शीतबाधा दूरीकरोतु. दूरीकरोतु. अग्नेः समीपम् आगच्छतु. शीतः दूरं गच्छति इति कृत्वा शीतबाधां दूरीकरोतु इति सः वदति. इदानीं भवान् एव एकवारं वदतु. सः अग्निं ज्वालितवान्.
सः अग्निं ज्वालितवान्
कपोतः
व्याधम् उक्तवान् कि त्वं अग्निं समीपे आगच्छतु.
तत्र षष्टिविभक्तिरूपम् आवश्यकमस्ति. अग्निः इकारान्तशब्दः अस्ति. हरिः हरेः इति षष्टिरूपं भवति. अग्नेः इति
अग्नेः समीपम् आगच्छतु.
भवतः शीतबाधं
तदा त्वं स्वस्य
दूरीकरोतु इति सः उक्तवान्. समीचीनं महोदय. अस्तु, हा इदानीं सरलभगिनी भवती अस्ति वा? अस्तु, समीचीनमेव. हा अस्तु, अस्तु अस्तु अस्तु. हा इदानीं भानुचेतनी महोदय, किमपि तदनन्तरं किं भवति इति वदति वा?
आम् आं महोदय.
हा,
कपोतः दृष्टं व्याधः क्षुधा पीडिता अस्ति. अतः तद् चिन्त्यः
एषः
व्याध चिन्तयति महोदय. तत्तु
चिन्तयति
सः चिन्तयति एषः व्याधः मम अतिथिः अथवा किञ्चित् कार्यं करणीयं क्षुधार्थनिवारणार्थं.
सत्यं, समीचीनं.
सः अङ्गारकम् आनीय
अग्निं ज्वालितवान्
अग्निं प्रज्वालितवान् प्रज्वालित्वा प्रविष्टवान् अन्तः अग्नि अन्तः प्रविष्टवान् सः व्याधः तद्दृष्ट्वा चिन्तितवान्
अहो भानुचैतन्य महोदय तत्र एकः तत्र द्वितीयपुटे तत्र परिच्छेदः अस्ति खलु अनन्तरं कपोतः चिन्तितवान् इति पश्यति वा तत्र
एकनिमिषं दृष्टवान्
अस्तु 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 पश्यतु महोदय तदेकवारं वदतु तत् एकवारं पठतु तदनन्तरं स्वशब्दैः वदतु तत्र अनन्तरं कपोतः
अनन्तरं कपोतः चिन्तयति एषः व्याधः मम
एकवारं पठतु भानुचैतन्य महोदय इति कुर्मः एकवारं भवान् पठतु तत्र अनन्तरं कपोतः चिन्तितवान् इति तत्
अनन्तरं कपोतः चिन्तितवान् एषः व्याधः मम अतिथिः अस्ति एषः इदानीं बुभुक्षितः अस्ति एतस्मै दातुं कोऽपि आहारः अत्र नास्ति किं करोमि इति
इदानीं तद् स्वशब्दैः वदतु
आं महोदय तदनन्तरं कपोतः चिन्तयति अत्र यत् व्याधः अस्ति सः मम अतिथिः अतः मम किमपि करणीयं सः तु क्षुधार्तः एतत् चिन्तयित्वा तत् कपोतः
सः कपोतः
कुत्रापि गत्वा कानिचित् अङ्गारकम् आनीय सः अग्निं प्रज्वलितवान्
किञ्चित् अङ्गारकम् अङ्गारकम् एकवचने अस्ति अतः किञ्चित् इति
किञ्चित् आं महोदय किञ्चित् अङ्गारकम् आनीय
अग्निं
प्रज्वालितवान् तदनन्तरं सः कपोतः अग्निं प्रविष्टवान्
अस्तु किन्तु अत्र अस्मिन् परिच्छेदे यद् अस्ति तद् वदतु महोदय यद् भवान् उक्तवान् तत् समीचीनमेव किन्तु अस्मिन् परिच्छेदे किम् अस्ति इति वदतु
सः चिन्तितवान् क्षुधार्तबाधितपीडितव्याधः किं मया किं
करणीयं किं करणीयं एतस्मै धातुं कोऽपि अहम् एतस्मै
मम पार्श्वे किमपि नास्ति
नास्ति एतस्मै धातुं
किमपि
नास्ति
किमपि नास्ति
किं करोमि इति सः चिन्तितवान् तदनन्तरं किम् अस्ति किं कृतवान् इदानीं विषयः नास्ति केवलं तावदेव अस्तु धन्यवादः महोदय अस्तु इदानीं
महोदय एकं अस्ति महोदय अहं रमा जयन्ती अङ्गारकम् आनीय अर्धं किं महोदय
आनीतवान् तत्र ल्यबन्तरूपम् इति वदामः गत्वा इति भवती जानाति खलु गत्वा किन्तु गच्छति गत्वा इति भवति आगच्छति किं भवति किन्तु गच्छति गत्वा आगच्छति भवति आगत्य इति
न महोदय मम प्रश्न महोदय अङ्गारकम् आनीय
तत्र पदद्वयमस्ति, अङ्गारकं किम् इति प्रश्नः वा अथवा आनीय इति प्रश्नः?
अङ्गारकम् अग्नि अहं जानामि,
तदेव तदेव वदामि भगिनि. तत्र नयति इति अस्ति, नयति इति अस्ति, नयति इति क्रियापदम् अस्ति, नयति इति क्रियापदम् अस्ति, किन्तु कोऽपि किमपि नयति. तदनन्तरं अस्तु, अहं स्यूतं नयामि, तदनन्तरं गृहे स्थापयामि. इदानीं तत्र वाक्यद्वयम् अस्ति, नीत्वा इति वदामः, स्यूतं नीत्वा, किन्तु इदानीं किम् अस्ति, आनयामि अथवा आनयति इति अस्ति. तत्र तस्य रूपं त्वान्तरूपम् इति वदामः, नयति नीत्वा इति भवति, किन्तु आनयति तस्य रूपं ल्यबन्तरूपम् इति वदामः. तत्र उपसर्गः अस्ति, अकारः आनीय इति अस्ति खलु, आनयति इति, अतः तत्र ल्यबन्त यकारः भवति, तत्र आनीय इति अस्ति. अङ्गारकम् आनयति, अत्र एतत् वक्तुं शक्नुमः, तत्र सः अङ्गारकम् आनयति, तदनन्तरं शुष्कैः पर्णैः अग्निं ज्वालयति इति.
धन्यवादः महोदय.
आनयति आनयति इति प्रथमक्रिया अस्ति, प्रथमा क्रिया अस्ति, तदनन्तरं ज्वालयति इति अस्ति, द्वितीया क्रिया अस्ति. किन्तु प्रथमं करोति, तस्य नन्तरं द्वितीयं करोति.
महोदय, अहं प्रश्नं पृच्छामि, फायर् हौ केन् यु केरि फायर्?
अङ्गारकम् आनीय, अङ्गारकं फायर् नास्ति भगिनि,
चार्कोल् अस्ति.
चार्कोल्? ओ ओके ओके, एव्रिथिङ्ग् इस् धन्यवादः महोदय.
सः अग्निः अग्निः एव सः न आनीतवान्. तद् अङ्गारकम् इति, तत् स्वीकृत्य सः अग्निं कृतवान्, ज्वालितवान्.
अहमपि अवगतम्.
अस्तु समीचीनम्, अस्तु समीचीनम्. अस्तु इदानीं, इदानीम् अस्तु, कः भानुचित्रमहोदय उक्तवान्, हरिमहोदय उक्तवान्, रघुपतिमहोदय, अस्तु भवान् एव. तदनन्तरं तत्र एवं चिन्तयित्वा सः व्याधम् उक्तवान् इति परिच्छेदः, तत् एकवारं पठित्वा किमस्ति इति वदतु तत्र.
एवं चिन्तयित्वा सः व्याधम् उक्तवान्, भोः अतिथिमहाशय, भवान् एकं क्षणं तिष्ठतु, इदानीं भवते आहारं सिद्धं कृत्वा ददामि इति. अनन्तरं कपोतः स्वयम् अग्निं प्रविष्टवान्, मम मांसं व्याधः खादतु इति तस्य आशयः आसीत्. कपोतस्य समीपे किमपि न आसीत् अतः, परन्तु सः अतिथेः सत्कारं कर्तुम् इष्टवान्, अतः सः चिन्तयति यदि अहम् अग्निं प्रविश्य स्वयं प्रविश्य तस्य आहारं
भवामि
इति चिन्तयित्वा सः अनन्तरं
व्याधं वदति
एकं क्षणं तिष्ठतु अहम्
आहारं
सिद्धं करोमि इति. अतः अनन्तरं स्वयमेव अग्निं प्रविष्टवान्.
तत्र ग्रामं गच्छति इति अर्थे.
ओके ओके ओके, अग्निं
कर्मपदं भवति, अग्निं प्रविष्टवान्. ग्रामं गतवान् इति तादृशरूपम् अस्ति.
अतः
कर्मपदमेव भवति तत्र. अग्निं प्रविष्टवान्. समीचीनं महोदय. अस्तु, अग्रे गीताञ्जलि भगिनी वदति वा किञ्चित् तत्र कपोतस्य त्यागं दृष्टवतः इति तत् परिच्छेदः एकवारं पठतु, तदनन्तरं वदतु तत्र. न अग्रिमं कपोतस्य त्यागं दृष्टवतः.
कपोतस्य त्यागं दृष्टवतः व्याधस्य लज्जा जाता. सः करुणया कपोतां पञ्जरतः बन्धविमुक्तां कृतवान्. तदा पतिविहरपीडिता कपोता अपि अग्निं प्रविष्टति
प्रविष्टवती
प्रविष्टवती.
हा, इदानीं किम् अत्र अस्ति किञ्चित् वदतु.
यदा कपोतः अग्निं प्रविष्टवान् तदा व्याधः अति दुःख अनुभवत् अनुभवति
अथवा अति दुःखम् अनुभवति इति प्रायः
अनुभवितवान्
अपि समीचीनम्, अनुभवति अपि समीचीनम्.
व्याधः अतीव दीर्घ इति
अतीवं दुःखम् इति
अतीवं दुःखम् अनुभवति.
हा, तत्र दुःखं किमर्थं चेत् तत् कर्मपदं भवति इति.
कर्मपदम् अस्तु महोदय.
किम् अनुभवति? दुःखम् अनुभवति इति कृत्वा
अतीवं दुःखम् अनुभवति. सः चिन्तयति सः चिन्तयति अहं न सम्यक् जीवनं अहं
किन्तु भगिनि एकवारम् एकनिमिषः केवलं यद् अत्र अस्ति तदेव वदतु, अग्रिमपरिच्छेदः मास्तु. अत्र किमस्ति?
अनुभवति सः पञ्जरतः मृत कपोतस्य पत्नी मुक्तिं करोति.
समीचीनं वा?
बन्धविमुक्तां कृतवान् इति अस्ति तत्र.
मृत कपोतस्य
पत्नीं तत्र कर्मपदं भवति महोदय खलु, सः किं करोति इति. रघुपति महोदय भवतः प्रश्नः कः?
मुक्तीकरोति
तत्र. अस्तु, मुक्तीकरोति अपि समस्तपदम् अस्ति चेत् समीचीनं.
मुक्तीकरोति
प्रायशः तत् समीचीनं समस्तपदम् इति. अस्तु,
दीर्घमुक्ति
वा न मुक्ति इति
न मुक्ति करोति मुक्ति अहं न जानामि सम्यक् वा. दीर्घ इति मन्ये मुक्तीकरोति
प्रायश तद् तद् साधु एव. किन्तु अत्र बन्धविमुक्तां कृतवान् इति अस्ति. विमुक्ता इति अस्ति.
पत्नी विमुक्ता करोति
विमुक्तां करोति
विमुक्तां करोति
विमुक्तां करोति
विमुक्तां करोति कपोता पतिः विना न जीवनम्
जीवनं कर्तुं न इच्छामि किन्तु तत्र पति इति शब्दः अस्ति तत् किञ्चित् क्लिष्टः शब्दः अस्ति पतिः
पतिः इति प्रथमविभक्ति
हा पतिः इति प्रथमविभक्तिः अस्ति
षष्टिविभक्ति
न किन्तु विना इति अस्ति यदि मति शब्दः अस्ति चेत् किं भवति तत्र मतिशब्दः अस्ति चेत् तत् मतया इति अस्ति किन्तु तृतीया एकवचनं सरला भगिनी किम् अस्ति
पत्यु षष्टिविभक्ति पति शब्दस्य पत्यु अस्ति
पत्यु किन्तु तत्र विना इति गीताञ्जलि भगिनी पतिः अस्ति तेन विना जीवनं कर्तुं न इच्छामि इति अतः तेन पति शब्दस्य तृतीया एकवचनम् पतिशब्दः मतिशब्दः वत् अस्ति इति
तृतीया विभक्ति सम्यक् महोदय
समीचीनं सम्यक् वा अस्तु अस्तु इदानीं वदतु पत्या विना
पत्या विना मम जीवनं इच्छा न
अथवा जीवनं कर्तुं न इच्छामि
जीवनं कर्तुं
कर्तुं न इच्छामि
न इच्छामि तथा
अतः
सापि अग्निं प्रवेशति
प्रविष्टवती इति प्रवेशनं करोति प्रवेशनं करोति इति
प्रविष्टवती
प्रायशः
तथा सा अपि अग्निं प्रविष्टवती
प्रविष्टवती समीचीनं भगिनि समीचीनं प्रविष्टवती अस्तु समीचीनं
अत्र सः करुणया कपोतां बन्धविमुक्ताम् अस्ति कपोता श्रीलिङ्ग अस्ति अतः बन्धविमुक्ताम् इति अस्ति करुणयापि यदि कपोतः अस्ति चेत् पुल्लिङ्ग अस्ति चेत् किं भवति सः करुणेन भवति वा करुणेन कपोतं बन्धविमुक्तं
न महोदय तत्र किमर्थं करुणया इति अस्ति करुणा इति
श्रीलिङ्ग
अस्ति अतः करुणया इति अस्ति
कपोतम् अस्ति चेत् बन्धविमुक्तं
सत्यं बन्धविमुक्तं सत्यं किन्तु करुणा इति आकारान्तस्त्रीलिङ्गशब्दः अतः सः करुणया कपोतम् अथवा कपोतां करुणया करोति इति तत्र बन्धविमुक्ताम् अत्र किं भवति तत्र यत्र क्रिया अस्ति करोति किमपि करोति तत्र कीदृशं तत् कार्यं भवति इति तत्र तृतीयविभक्तिरूपम् अस्ति अहं सन्तोषेन कार्यं करोमि सः दुःखेन तत्र तिष्ठति इति तत्र तृतीयविभक्तिरूपम् आवश्यकं भवति तत्र
अत्र महोदय कर्मपद नास्ति वा अत्र कर्मपद अस्ति
कृतवान् इति कार्यं कृतवान् क्रियापदं सः व्याधः इति कर्तृपदं, बन्धविमुक्ता कपोता इति कर्मपदं भवति. पञ्जरतः बन्धविमुक्ता कपोता इति अस्ति. अस्तु, हा अस्तु, सरलभगिनी समापयतु. अग्रे किं भवति?
एतद् पठामि प्रथमम्.
एतत्
दृष्टवतः व्याधस्य मनसः परिवर्तनं जातम्. एतादृशाः पक्षिणः अपि धर्माचरणं कुर्वन्ति. अहं तु अन्येषां प्राणिनां प्राणानाम् अपहरणं कुर्वन् अधर्मेण जीवामि. एतत् अनुचितम् इति चिन्तयित्वा सः व्याधः अपि अग्निं प्रविश्य प्राणार्पणं कृतवान्. अनन्तरं ते त्रयः अपि स्वर्ग गतवन्तः. एतत् कपोतः अपि कपोतः तयोः स्व अर्पणं व्याध्याय प्रति दृष्ट्वा व्याध्यस्य मनसि स्थिति परिवर्तनं भवति. वह सः चिन्तितवान् पक्षिणः अपि अतिथिसत्कारं कुर्वन्ति, किन्तु अहं मम कृते द्वौ तयोः प्राणा त्यक्त्वा मृत्यु प्राप्तवन्तौ. इदानीं धर्मस्य आचरणं द्वौ कृतवन्तौ. इदानीम् अहं अहं पापं करोमि. तस्य मनसि लज्जा आगता. सः चिन्तितवान् अहम् अन्येषां प्राणिनाम् अपि प्राणम् अपहरणं करोमि इति चिन्तयित्वा सः तस्य प्राणात् त्यक्तवान्, अग्निं प्रविष्टवान्. त्रयः अपि स्वर्गं प्राप्तवन्तः.
तत्र दृष्टवतः व्याधस्य इति तत् किमस्ति?
दृष्टवतः व्याधस्य इति षष्टिविभक्तिः अस्ति. दृष्टवान् व्याधः.
समीचीनं भगिनि. तत्र केवलम् एकनिमिषः समयः जातः, किन्तु केवलम् एकः निमिषः. अधर्मेण इति अस्ति, तत्र किं भवति? धर्मः इति अस्ति.
ऋकार नकार मध्ये मकार आगच्छति पवर्गीय, अतः नकार भवति.
अधर्मेण इति सर्वे अवगच्छन्ति खलु. तत्र प्रथमसोपानं किं? ऋकारः ऋकारः अथवा षकारः भवति. द्वितीयसोपानं किं? मध्ये कवर्ग अथवा पवर्गव्यञ्जनम् अस्ति चेत् केवलं तदस्ति चेत् बाधा नास्ति, अथवा स्वरम् अस्ति चेत् बाधा नास्ति. इदानीं मध्ये मकारः अस्ति, अतः बाधा नास्ति. नकारः णकारः भवति अधर्मेण. इदानीं षष्टिविभक्ति बहुवचनरूपं किम् अस्ति? अधर्माणाम् इति षष्टिविभक्ति बहुवचनरूपं भवति. अस्तु, तत्र
महोदय, अत्र पदान्ते अपि नकारस्य णकारः भवति वा? यदा प्राणार्पणम् अस्ति, प्राणार्पणं वा किल? प्राणार्पणं
तत्र अर्पणम् इति
नत्वं भवति वा?
अर्पणम् इति अस्ति.
नत्वं रूल् अस्ति वा? अतः यदा
तद् द्रष्टव्यं महोदय. किन्तु भवतः प्रश्नः समीचीनः एव. यद् यः नियमः इदानीं यस्य पालनम् अत्र वयं कुर्मः नत्वम् इति विषये, यः नियमः अस्ति अहं केवलं प्रथमद्वितीयसोपानम् उक्तवान्, सः नियमः केवलं विभक्तिमध्ये आगच्छति इति न, शब्दनिर्माणे सः एव नियमः अस्ति. अतः भवतः प्रश्नः समीचीनः. यदि पदस्य निर्माणं यदा भवति तस्य एषः नियमः अपि द्रष्टव्यः अस्ति. अतः प्रायशः नकारस्य नियमः तत्र भवति इति मन्ये, किन्तु द्रष्टव्यम् अस्ति. महोदय, भवतः प्रश्नः समीचीनः एव. णत्वं विषये केवलं विभक्ति नियमः केवलं विभक्ति इति कृत्वा न, पदनिर्माणे एव पदनिर्माणे यथा शब्दस्य निर्माणं भवति तत्र णत्वम् इति भवति न वा इति नियमः, एषः नियमः यद् वयम् उक्तवन्तः तदेव तत्र तस्य पालनं भवति तत्र. अहं वदतु भगिनि.
भवान् प्रथमं समाप्तं करोतु.
अस्तु अस्तु अस्तु. हा, तत्र स्वरूपमहोदयस्य णत्वम् इति विषये प्रायशः करपत्रम् अस्ति, तद् तस्य लिङ्क् अहं प्रेषयामि. हा, तत्र प्रथमं द्वितीयं सोपानमपि अन्यानि सोपानानि के सन्ति तदपि किञ्चित् विवरणं तत्र दत्तमस्ति, सर्वे पश्यन्तु. हा, बहु लाभः एव. हा, स्वरूपमहोदयस्य प्रत्येकं करपत्रं बहु लाभं यदि द्रष्टुम् अपि पठितुं शक्नोति चेत्. हा, अस्तु अस्तु.
प्राणानां रकार नकार मध्ये नकार चवर्गीय अस्ति, तत्र नकारस्य नकार न भवति.
प्राणानां सत्यं सत्यं प्राणानां. हा, सत्यं, समीचीनं. हा, प्राणानां तत्र तदपि नकारः एव अस्ति. समीचीनं भगिनि, धन्यवादः. तदपि बहु समीचीन समीचीनम् उदाहरणम् अस्ति. हा, धन्यवादः. अस्तु, समयः जातः. अस्तु, रघुपति महोदय, अन्यप्रश्नः अस्ति वा?
न महोदय, अत्र कुर्वन् अस्ति, अत्र नकार नास्ति, कुर्वन् कुर्वन् वकार अस्ति, बाधा नास्ति, अतापि तथापि कुर्वन्.
हा, किन्तु अतः अतः उक्तवान् तत्र नकारस्य नियमः भवति किन्तु द्रष्टव्यम् अस्ति. हा, आङ्ग्लभाषायां वदामि, द रूल् विच् वि यूस्ड् फार् विभक्ति, दट् सेम् रूल् इस् अप्लिकबल् इन् अदर् काण्टेक्स्ट्, बट् देर् मे बि अदर् रूल्स् विच् कम् इन् बिट्वीन् विच् से दिस् केनाट् बि अप्लैड्. केवलम् एषः नियमः नास्ति खलु, अनेकाः नियमाः अस्ति, पाणिनिसूत्राणि सन्ति. अतः सूत्रं अनेकानि सूत्राणि सन्ति तत्र. अस्तु, समयः जातः, विरमामः, अग्रिमवर्गे मिलामः. यदि प्रश्नः अस्ति चेत् कृपया प्रेषयतु, यद् शक्नोमि तद् उत्तरं ददामि. अस्तु, सर्वेभ्यः नमस्कारः.
धन्यवादः महोदय.
धन्यवादः. नमस्कारः.